ఉద్యోగైన్యాదేశ అద్యవలైతైత్యాశీతి పంచాశతపురాణి భౌంద్రాణు మమాజ్ఞయ యుద్ధాయ సజ్జానేజ్ఞాంతు ఆజ్ఞయా సరితా మమ విద్యా జ్ఞాప్యా గురపతి శుంభో వైరవ శాసన నిర్జగామ మహాసైన్య సహస్రైర్ముగర్భిత ూరయామాసరీగనాంతరం తింహో మహానాదమీతృతాస్వేన కన్యాదమంబికాపబృంహయ ధనుజ్యా సింహ ఘంటానాదాపూరితీముఖాదైర్భీషణైకారీకారిణా ఏకస్మింతరే భూప వినాశాయ సుగద్దిశాయ్రమ్య తద్రూపై స్కండికా ూపూచనవాగనంక్షిమానాక్షసూత్రకమండలు ఆయా బ్రహ్మణ శక్తి బ్రహ్మాణీపాధీయే మాధేశ్వరీ మహాజిమలయా చంద్రరేఖాభూషణ సౌమారీ శక్తిమూరవరవాహన యోగ్యాయోదైత్యానందికాభువరూపిణి తథైవ వైష్ణవీ శంఖచక్రగదాశాంఖ్యమస్తాభ్యుపాయయౌ ప్రాప్తాక్షేపక్షిప్తనక్షత్రసంహతి శీఘ్రం మమీచారీరాక్రాంతిభీషణిక్రక్ుగ్రాశకరినాధూంద్రజిలమీషా నమ పరాజిత दूतस्तं गच्छ भगवन्ताश्रं सुन्दरि शुम्भयोः यो हि शुम्भं निशुम्भं च दानपापति गर्वितौ येषान्ये दानवा तत्र युद्धायकमुपस्थिताः त्रैलोक्यमिन्द्रो लभताम् देवासन्तु भवेद्भुतः यूयम् प्रयातपातालन्यज जीवितुमिच्छत बलाबले पादप्रचेद्भवन्तो युद्धकाङ्क्षिणः तदा गच्छत् कृत्यम् तु मच्छिभाशिषिते नमः यतो नियुक्तो दौत्येन मया देव्या शिवस्वयम् शिवरूपेति लोकेऽस्मिन् साक्षातिमागता तेऽपि श्रुत्वा मयो देव्या सर्वाक्षातम् महासुराः अमर्षा पूरिता यद्मुर्यप्रकाश्यायीक्षिता ततः प्रथममेवाग्रे सरशक्तिरुष्टिवृष्टिभिः समस्तरुद्धतामस्वान् देवी ममरारयः शासतान् प्रणितान् बाणान् शूलशक्तिपरश्वथान् चिच्छेदलीलयात्मातधर्मुक्तैर्महेशभिः तस्याधृतस्तपाकादीशूलपाकविकारितान् षड्वाङ्गपोषितान् चारी पूर्वतीजतरस्तदा समण्डलजलाक्षेपहतीर्याह्नकौचकः ब्रह्माणी चाकरोच्छक्रोन्येन येन स्मभावति माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी दैत्यान् ब्रह्मानकौमारी तथा सत्यादिकोपना ऐन्द्री पुरुषपाकेन शतशो दैत्यदानवाः ते दुर्विचारिता पृथ्व्यां दुर्गिरौ भक्तवर्षिणः तुण्डप्रहार विध्वस्ता दंशा द्रक्षतमक्षतः पाराभमूर्त्या न्यपतं चक्रेण स विदारिताः नखैर्विदारिताम् स्वान्याम् भक्षयन्ते महापुराण नारसिंही च चारादौ नादापूर्णदिगम्बरा चण्डाप्तैरपुराशिवदूत्यभिभूषिताः ते सुपृथिव्याम् परिताम् ताम् सखादाथवा तदा इति मातृगणम् वृद्धम् मर्दयन्तम् महापुराण दृष्ट्वाभ्युवायैर्विविधैर्देशो देवायसैनिकाः पलायनपयान् दृष्ट्वा वैत्याम् मातृजनार्दितान् योद्धुमध्यायो क्रुद्धो रक्तबीजो महासुरः रक्तबिन्दुर्यदा भूमौ कतस्य शरीरतः समुत्पतति मेलिन्याम् तत्र मानस्तदासुरः युयुधे च गदापाणिरिन्द्रशक्त्या महासुरः ततश्चैन्द्रीर्भद्रेण रक्तबीजमताडयत् पुरिषेणागतस्यासु बहु शुश्रावशोषितम् समुत्तच्छुत्तको योधा तद्रूपास्तत्पराक्रमाः यावन्तः परितास्तस्य शरीराकृष्टविन्दवः तावन्तः पूजा जाता तद्दीर्यबलविक्रमाः तेषापि युधुस्तत्र पुरुषारक्तसम्भवाः समम् मातृभिरत्यत्र पाताभिभीषणम् पुनश्च वज्रपातेन क्षरवज्रशिरोजगा भवामरक्तम् पुरुषात्तपो जाताश्चरस्वतः वैष्णवी समरे तैरम् चक्रेणाभिदधानः जगया तारया मास ऐन्द्रेणासुरेश्वरम् वैष्णवी चक्रभिन्नस्य रुचिरस्यावसम्भवैः स सहस्रशो जगद्व्याप्तं तत्र मानैः महापुरैः शक्त्या जगाय कौमारी नारायी च तथाचिना माहेश्वरी त्रिशूरेण रक्तरीदम् महापुरम् तथापि गर्यादैत्य सर्वा एवाभवत्पृथग् मार्गोपसमादिष्टो रक्तबीजो महापुरः तस्याः तस्य बहुधा शक्तिशूलादिभिर्भुवि
अपापयो
वैरक्तौ भक्तेन पञ्चदशो सुराः तैश्चा सुरासक्तम् भूतैः सुरैः सकलम् जगत् व्याप्तमासीत्ततो देवाभयमाचत् गुरुत्तमम् तान् विषन्मान् सुरान् दृष्ट्वा दण्डिका प्रावपत्वरा उवाच काली चामुण्डे विस्तीर्णम् वदनम् को मच्छत्रपादसम्भूतान् रक्तबिन्दोन्महापुरान्
रक्तबिन्दोः
प्रतीक्षत्वम् वक्त्रेणानेन देविना भक्षयन्ती च धरणे तदुत्पन्नान् महापुरान् एवमेष क्षयम् दैत्यः क्षीररक्तो गमिष्यति भक्ष्यमाणा त्वया सोग्रामशोत्पत्यन्ति चापरे इत्युक्त्वा ताम् ततो देवी शूलेनाभितकामकम् मुखेन काली गर्हे रक्तबीजत्रशोणितम् ततो सामाजघानाथकतया तत्र चण्डिका न चाद्या वेदनाम् चक्रे यदा पातोल्पिकामपि तस्याः तत्र देहात्वबुदुस्प्रातशोणितम् यतस्ततस्तत्पत्रेण चामुण्डा सम्प्रतीक्षति मुखे समुद्गता येत्या रक्तपातान् महासुराः तान् च खादा च चामुण्डावकोटस्य दशोणितम् देवी शूरेण वज्रेण बाणेन सृजिभिः यथारक्तबीजम् तम् चामुण्डा भीतशोणितम् सपादमयेतश्चन्द्रसमागतः नीरक्तश्च महीपालरक्तबीजो महापुरः ततस्तेहश्च मतुलमहापुत्रिदशाग्रम तेषाम् मातृगणो जातो नरस्थासिंहगोद्धतः ॐ सत्यापन्तिरमानस्य कामाः नमो देव्यै महादेव्यै शिवायै पदमम् नमः नमः प्रकृत्यै भद्रायै नियतात्मकात्मकाम् साङ्गायै सायुधायै सपरिवारायै सम्पात्मिकायै अष्टमातृकासहितायै रक्ताश्रयै